नमस्सर्वेभ्यः। अद्य शिक्षावर्गस्य दशमः पाठः, आगस्ट् मासस्य चतुर्थः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहस्रिनमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। गतवर्गे वयं परसवर्णसन्धेः द्वितीयं नियमं ज्ञातवन्तः। परसवर्णसन्धिः द्विविधः भवति। प्रथमे अनुस्वारस्य अनुनासिकः आदेशः भवति, द्वितीये तवर्गस्य लकारः। इदं द्वयम् अपि अधीतम्, अभ्यासश्च कृतः। पुनश्च केषाञ्चित् भगवद्गीताश्लोकानाम् अध्ययनं कृतम्। अद्य आदौ व्याकरणभागे परसवर्णसन्धेः पुनरावर्तनं कुर्मः। अनुस्वारस्य वर्गीयव्यञ्जने परे तस्य वर्गस्य पञ्चमः वर्णः आदेशः भवति इति प्रथमः नियमः, किल? कवर्गस्य वर्णेषु परेषु ङकारः, सवर्गस्य वर्णेषु परेषु ण्यकारः, तवर्गे ण, सवर्गे न, पवर्गे म। तत्तस्य वर्गस्य पञ्चमम् अक्षरम् आदेशरूपेण भवति। एवमेव य, व, ल एतेषु परेषु अनुनासिकाः यवलाः आदेशाः भवन्ति इति प्रथमः नियमः। तत्र कुत्र नित्यः, कुत्र विकल्पः इत्यपि ज्ञातवन्तः। पदान्ते विकल्पः, पदस्य अन्ते अनुस्वारः भवति चेत् परसवर्णः विकल्पेन भवति। पदस्य अन्तः नाम कुत्र कुत्र भवति? यत्र पदद्वयं भिन्नं भिन्नं पदं भवति, त्वं करोषि, त्वं करोषि, भिन्नं भिन्नं पदं चेत् विकल्पेन परसवर्णः अनुस्वारः अपि भवति। एवमेव उपसर्गः अपि पदम् इत्येव अङ्गीक्रियते। अतः उपसर्गः धातुः सम् इति उपसर्गः यत्र भवति तत्रापि परसवर्णः विकल्पेन भवति। समासे पूर्वपदे मकारः अस्ति चेत् भयङ्करः अनुस्वारः, भयम् इति अनुस्वारः अस्ति, तस्य परसवर्णः विकल्पेन भवति, भयङ्करः, शङ्करः इत्यादिषु। एवं पदान्ते अनुस्वारस्य परसवर्णः विकल्पः। पदस्य मध्ये एकस्मिन्नेव पदे पदस्य मध्यभागे अनुस्वारः अस्ति चेत् तत्र परसवर्णः नित्यं भवति। तत्र अत एव पदस्य मध्ये अनुस्वारः न उपयोक्तव्यः। अङ्कः, पञ्च, घण्टा, दन्तः, कम्पनम् इत्यादिषु नित्यं परसवर्णसन्धिः भवति। अयम् अनुस्वारस्य परसवर्णः। तवर्गस्य परसवर्णः अपि भवति। यदा तवर्गस्य लकारः परतः भवति तदा लकारः एव आदेशः भवति। तत्र त, थ, द, ध इत्येतेषां चतुर्णां वर्णानां लकारः भवति, नकारस्य तु अनुनासिकः लकारः भवति। पाठान् लिखति इत्यस्ति चेत् पाठान् लिखति इति ल् अनुनासिकः लकारः। तत् लिखति, तल्लिखति इत्यादिषु तु केवलः लकारः भवति। तत्र अभ्यासे सन्धिविभजनं कर्तव्यम् इति आसीत्। ये कर्तुमिच्छन्ति हस्तमुन्नयन्तु। राजेश नायक।
विद्युल लेखा, विद्युत प्लस लेखा,
विद्युत लेखा, विद्युल लेखा सम्यक्। जी दिया
सुरल लो लोलहा, सुरल सुरल लोलहा
सम्यक्, स्फुरत लोलह, स्फुरल लोलह उत्तम। पद्मनाभन
गुणान लोकय, गुणान लोकय,
गुणान लोकय नकारस्य अनुनासिकः लकारः सम्यक्। स्वामीनाथन
विद्वत् लोकः, विद्वत् प्लस लोकः,
विद्वत् प्लस लोकः, विद्वल्लोकः सम्यक्। सीता नारायण
गच्छन् गच्छन् लपति, गच्छन् लपति,
गच्छन् लपति नकारस्य अनुनासिकः लकारः सम्यक्। एतानि परसवर्णसन्धेः उदाहरणानि। पदानाम् अर्थः पृच्छ्यते। विद्युल्लेख स्ट्रीक् आफ् लैट्निङ्ग्, विद्युत् इत्यस्य तडित् इत्यर्थः, तस्याः लेखा लेखा रेखा समान स्ट्रीक् आफ् लैट्निङ्ग्। स्फुरल्लोलः स्फुरत् इस् दट् विच् इस् पल्सिङ्ग् अण्ड् लोल अण्ड् मूविङ्ग्, सो इट् इस् एन् अब्जेक्टिव् टु समथिङ्ग् शुड् बि अण्डर्स्टुड् वित् रेफरेन्स् टु कान्टेक्स्ट्। सो गुणान् लोकय, लोकय पश्य इत्यर्थः, गुणान् पश्य इति। तत्र चन्द्रबिन्दुः अपेक्षते, नकारस्य अनुनासिकः लकारः आदेशः, अतः लिङ् प्रथमः लकारः तत्र अनुनासिकः। गुणाल्लोकय विद्वल्लोकः, लोकः इत्यस्य अत्र जनः इत्यर्थः, विद्वज्जनाः इति अर्थः भवति। गच्छन् लपति, लपति इत्युक्ते किमपि जल्पति, सम्भाषणं करोति इत्यर्थः। गच्छन् भाषते इति भवति। अग्रे गच्छामः। अग्रे श्लोकः दत्तः, यत्र यत्र सम्भवः अस्ति तत्र अनुस्वारः परसवर्णश्च कर्तव्यः इति आसीत्। अविनाश
ओके। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, इन द फर्स्ट लाइन देर इज नमस्तुभ्यम एंड वरदे, when you join together it becomes vara vara namastubhyam varade,
right? So tatra makarasya makare pare adau anuswarah bhavati anantaram parasavarnah anunasikah vakarah namastubhyam varade
varade. In second line vidyarambham karishyami siddhir bhavatu me sada. So vidyarambham karishyami, there is also a sandhi where we can make n because it is kavarga, so n, so it becomes vidyarambham karishyami,
vidyarambham
karishyami siddhurvatum eva, there is only two places there is a sandhi,
correct? So makarasya kakare pare adau anuswarah, धन्यवादः। अनन्तरम् अनुस्वारस्य परसवर्णेन नकारः, कवर्ग, कवर्गस्य पञ्चमः वर्णः आदेशः भवति। विद्यारम्भं करिष्यामि, सो सरस्वति नमस्तुभ्यं वरदे कामरूपिणि, vidyarambham karishyami siddhir bhavatu me sada. Yes, yada evam shloka rupena uccharanam kriyate tada parasavarnaha bhavatyeva. Yadyapi atra parasavarnaha vikalpaha vidyarambham karishyami iti anusvaraha bhavitum arhati tathapi samanyatah shlokocharane parasavarnaha eva upayujyate tadeva shuddham ityapi manyate. So it is very natural phonetic change which happens. Ha, atra vidyarambham adav anusvaraha bhavati hali pare tattu smaryate purvatana santihi yada hal varnaha bhavati tada makarasya anusvaraha tataha anusvarasya parasavarnaha ubhayatrapi tathaiva adav anusvara santihi anantaram parasavarna santihi. Shlokasya arthaha prayaha sarvaihi jnayate atyantam prasiddhaha shlokaha sarasvatyaha vandanam. He sarasvati varade ya varan dadati sa varada tasyah sambodhanam kamarupini yadyad rupam icchati tadharati iti kamarupini vidyarambham karishyami aham vidyabhyasasya arambham karomi siddhir bhavatu me sada. Dvitiyah shlokah. Rao.
Hey, good morning. Can you hear me?
Sure.
Okay. Ayur balam yaso vartyah praja pasuvasuni cha brahma pragyam cha medham cha tvam no dehi vanaspate. Ayur balam makare pare yakara asti. So there is no anuswara here because it is ya is not a vyanjana.
Ya is a vyanjana.
Yeah, it is a vyanjana, but not for this purpose.
Why? Bhavati kila.
Huh?
Bhavati. Anuswara bhavati.
Then in that case, you know, we will have ya with a what do you call anuswara.
Chandra Bindu, the Anunasika Yakara.
Anunasika Anuswara, yeah. Ayur Balam,
Yakare Pare, Adav Anuswara Bhavati, Vaisasri Para Savarnena Yakara. Ayur Balam Yasho Varnaha.
Pragnyaha Pasuvasuni Cha. Brahma Pragnyam Cha. Here, this is, Brahma Pragnyam is a Pada. So, vikalpayana, you can have an anuswara or the parasavarna with nya.
Nyakara. So, brahma pragyan cha tathaiva medham cha ubhayatrapi makarasya chakare pare anuswara bhavati. Anuswarasya nyakaraha brahma prajnancha medhancha. Next kima api asti va?
Tvam. That's also a pada. So, nakarasthane, then you will have a nakara with what do you call them, Ardhachandra and Bindu.
Nakara se napeche, because nakara is always ananasika. So, ma, makara se anuswara bhavati, anuswara se nakara bhavati.
Okay. So, there is no anuswara for that.
No, just chandra bindu.
Just nakara.
See, Chandrabinduh kada upayujyate, anunasikaha iti yada vaktavyam tada upayujyate. Right? Nakaraha sarvada anunasikaha. See, in vyanjanas we have nitya anunasikaha. Vargasya panchama varnaha. Na, nya, na, na, ma. Ete varnaha nityam anunasikaha. Tesham Chandrabinduhu napekshate. They are always anunasika, so they don't need a Chandrabindu. Kintu yavala tesham anunasikaha api bhavati kevalam api bhavati yatha yaya ubhayam yatra asti tatra anunasikaha iti bodhayitum Chandrabinduhu upayujyate. So tatra kevalam ya asti chet tatra kevalam ya iti uccharanam. Chandrabinduhu asti chet nya iti nasikaya uccharanam bhavati. Ataha so, Chandrabinduhu upayujyate. Nakarasya napekshate.
So you are saying that the fifth letter of all the vargas is automatically an anuswara. So
anunasika.
Anunasika, yes. But it doesn't need to have a other Chandrabindu over the top, right?
Right. Right.
Okay. Thank you.
So ఆయుర్బలయశోవత్సః ప్రజాః పశువసూనిచ బ్రహ్మ ప్రజ్ఞాంచ మేధాంచ త్వన్నో దేహి వనస్పతే. అయం శ్లోకః విశిష్టః పూర్వకాలే దంతధావన సమయే అయం శ్లోకః ఉచ్యతే. యథా స్నానకాలే గంగే చ యమునే చైవ ఇతి వదామః, ఏవం దంతధావన సమయే అత్ర వనస్పతే ఇత్యస్తి. తత్ర పూర్వకాలే దంతధావనార్థం వృక్షాణాం కాష్ఠం లఘు శలాక ఉపయుజ్యతే కిల, నింబవృక్షస్య అథవా విశిష్య వనస్పతీనాం కాష్ఠైః దంతధావనం క్రియతే స్మ. సో ట్విగ్స్ ఆఫ్ మెడిసినలీ బెనిఫిషియల్ ట్రీస్ వేర్ యూజ్డ్ ఫర్ బ్రషింగ్ ద టీత్. తదా తమ్ కాష్ఠం ఉద్దిశ్య అయం శ్లోక ఉచ్యతే. హే వనస్పతే త్వం నహ నహ ఇత్యుక్తే అస్మభ్యం దేహి కిం కిం దేహి ఆయుః జీవితకాలం బలం శక్తిః యశః కీర్తిః వర్చః వర్చః తేజః తేజస్విత్వం ప్రజాః ప్రజాః ఇత్యుక్తే అపత్యాని సంతతిః పశు వసూని పశవః గో మహిషాదయః వసూని నామ సంపత్తిః బ్రహ్మప్రజ్ఞ బ్రహ్మజ్ఞానం మేధా ధారణాశక్తిః. సో ఏతత్ సర్వం అస్మభ్యం దేహి ఇతి సంప్రార్థ్య దంతధావనం క్రియతే స్మ. అస్మాకం దృష్టిః ఏవ తథ సర్వం అపి కార్యం పవిత్రం భవతి సర్వత్ర దేవత్వం అనుభూయ ఏవ అస్మాభిః క్రియతే ఇత్యేవ అస్మాకం ధర్మః తథైవ అస్తి. ఏవం దంతధావన సమయే అయం శ్లోకః ఉపయుజ్యతే. సో వర్చః తేజః ఉభయం సమానం వాటి అట్ సూపర్ఫిషియల్ లెవెల్ సమానం ఇది స్వీకర్తుం శక్యతే. కుత్రచిత్ విశిష్య ఏతత్ స్యాత్ దిస్ వన్, బట్ సామాన్యతః తేజః వర్చః ఇది సమానార్థ ప్రయోజ్యం. అగ్రే గచ్చామః. అగ్రిమ శ్లోక
నమస్తే. ఉగ్రం వీరం మకారక బికమ్స్ అనుస్వర దెన్ ఉగ్రం వీరం అండ్ అనునాసిక అవకార వీరం అనునాసిక
వీరం తత్ర కిం భవతి
మకారస్య స్థానే అనునాసిక భవతి వీరం
అనుస్వారః
అనుస్వారః సారీ అనుస్వారః భవతి
అనంతరం
అనంతరం మకారః భవతి వా
Bhavati, bhavati.
Okay.
Punaha makaraha bhavati. Pashyamaha. Ugram viram ityatra makarasya anusvaraha parasavaranena ugram viram anunasikaha vakaraha. Agre viram mahavishnum ityasti. Agre bhadram ratyum ratyum ityapi asti. Ubhayatrapi makarasya makare pare anusvaraha bhavati punaha makaraha bhavati parasavarnaha.
And then Mahavishnum, that becomes Anuswaraha.
Mm-hmm.
And Jvalantam, Tham Anuswaraha.
Only Anuswara? Parasavarnaha?
Oh, where? Which one? Mahavishnum, Jvalantam?
Jvalantam.
Oh, okay, okay. Mahavishnum, Jvalantam. Okay, that one. Oh, nya bhavati. That
nyakara.
Talavya nyakara. Nyakara, right.
So, Mahavishnum Jvalantam. Makarasya jakare pare anusvaraha tasya nyakaraha. Vishnum Jvalantam.
Okay. Jvalantam. Sarvadho mukham, jvalantam first becomes anuswaraha. And does it change
it. Again? That's it. Parasavarnaha right. Na bhavati. Etohi vargiya vyanjanam na. So parasavarnaha kada bhavati vargiya vyanjanam ched bhavati athava yava la ched bhavati atra na bhavati. So anuswaraha eva bhavati jvalantam sarvato mukham.
Okay, and nirsingham, that makaraka becomes anuswaraha, and then again changes to makaraha.
Samyak. So nirsimham bhishanam bhadram ubhayatrapi. So makarasya bhakare pare anuswaraha punaha makaraha bhavati. Because it is pavarga, pavargasya panchamaha makaraha adeshaha bhavati.
And bhishanam badram tathayeva. Anuswarasya becomes makara again. Bhishanam badram. Badram mrityur mrityum mrityum. The same. Badram becomes makaraha followed by anuswara, then makaraha again. Mrityum. Oh, the last one. Mrityum. Mrityun namayaham. Then makaraha becomes nakaraha.
Correct. So, mrityum namamyaham. So, makarasya nakare pare anuswaraha tataha nakaraha bhavati. धन्यवादः.
थैंक यू.
यत्र द्वितीया विभक्तिः भवति तत्र परसवर्णः. सो यदा उच्यते उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतो मुखं नृसिंहं भीषणं भद्रं मृत्युं मृत्युं नमाम्यहम्. सो सर्वमपि यदा उच्यते यु केन् टेल् द होल् थिङ्ग् इन् वन् ब्रेक्. You can even, if you have the pranaha santi chet, atrapi sarvato mukhan rasimham iti kartum shakyate. So samanyataha satra chedaha kriyate. Nrasimhasya narasimhasya shlokaha tattu jnayate. Narasimham aham namami. Kidrishaha narasimhaha ugraha bhayankaraha kupitaha ityadi. Viram atyantam balavan. Mahavishnum, Mahavishnoho, avataraha, jvalantam, jvalati, burning. Sarvato mukham. So, sarvasu bichu yasya mukham bhavati saha sarvato mukhaha. Nrisimham bhishanam, bhishanaha bhayankaraha, kintu bhadram, bhadraha nama mangalakaraha. Yathabhishanaha tathaiva bhadraha mrityum mrityum मृत्योः एव मृत्यु स्वरूपः अस्तु मृत्यु मृत्युं नमाम्यहम् इत्यस्ति प्रसिद्धः श्लोकः मूलं वस्तुतः मया न ज्ञायते स्म किन्तु महेश्वरी भगिनी वदति श्रीमन्त्रराजपदश्लोकं स्तोत्रम् इति स्तोत्रात् इदं स्वीकृतम् इति प्रत्येकं पदं पृथक् पृथक् श्लोकात् स्वीकृत्य उक्तमिति धन्यवादाः सो इट्स् अ वेरि फेमस् श्लोक आफ् नरसिंह सर्वभयविनाशकः श्लोकः इति उच्यते उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं नृसिंहं भीषणं भद्रं मृत्यु मृत्युं नमाम्यहम् अग्रिमश्लोकः वरुण विश्वनाथन्
नमस्ते श्रूयते वा
श्रूयते वदतु
अगस्त्यं वैनतेयं मकारस्थाने अनुनासिकवकारः भवति
सम्यक् सो द वकार मकारस्य वकारे परे अनुस्वारः तस्य अनुनासिकः वकारः अगस्त्यं वैनतेयं
वैनतेयं च मकारस्य स्थाने ण्यकारः भवति
सम्यक् सो ओके सो वैनतेयं च अगेन् शमीं च उभयत्रापि मकारस्य अनुस्वारः तस्य अनुनासिकः ण्यकारः
अस्तु समीं च ण्यकारः आहारपरिणामार्थं मकारस्य स्थाने
अनुस्वारः भवति यतोहि तत्र परसवर्णः नास्ति आहारपरिणामार्थम् इति अनुस्वारः एव भवति सो वैनतेयञ्च शमीञ्च इत्यत्र ण्यकारः परिणामार्थं स्मरामि इत्यत्र अनुस्वारः अगस्त्यं वैनतेयञ्च शमीञ्च वडवाननम् आहारपरिणामार्थं स्मरामि च वृकोदरम् अयं श्लोकः भोजनस्य भोजनात् अनन्तरम् उच्यते भोजनात् पूर्वं सर्वैः ज्ञायते अन्नपूर्णे अथवा ब्रह्मार्पणम् इत्यादयः उच्यन्ते भोजनस्य अनन्तरम् अयं श्लोकः उच्यते आहारपरिणामार्थं यः आहारः भुक्तः सः जीर्णः भवेत् इति परिणामः नाम तत् तथैव उदरे तिष्ठति चेत् महान् क्लेशः तस्य परिणामः भवेत् तस्य सत्त्वं रक्ते प्रवहेत् तदर्थं स्मरामि कान् कान् स्मरामि अगस्त्यम् अगस्त्यमहर्षिः वैनतेयः गरुडः शमी इति वृक्षः तस्य वनस्पतिः शमी इति वडवानलः अग्निः समुद्रस्य मध्ये यः अग्निः भवति सः वडवानलः इति उच्यते वृकोदरः भीमः एतेषां स्मरणेन आहारस्य भुक्तः आहारः सम्यक् जीर्यते इति प्रतीतिः तत्र कारणमस्ति किमर्थम् एतेषां जीर्णक्रियया सम्बन्धः अग्निः जठराग्निः एव आहारं जरयति अगस्त्यस्य कथा अस्ति वातापि इल्वलयोः कथा यत्र अगस्त्यः भुक्त्वा वातापि जीर्णो भव इति कथयति किमपि जरयितुं शक्नोति इति प्रतीतिः इत्यादि अतः एतेषां स्मरणेन आहारस्य परिणामः सम्यक् भवति इति प्रतीतिः अन्तिमः श्लोकः ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु Lalita. You have to unmute.
Can you hear me?
Yes. What is this?
Yes, I'm trying for the first time, so I'm a bit scared. I've never volunteered like that. So I'm not very confident. So Durlabham Manusham. So the ma and ma together will become half ma and ma.
Mm-hmm.
So Durlabham Manusham. And then ma and ja will become ma and ja together will become nja. So na and ja together.
Correct.
Okay. Parchate tri deshe rapi. Tat labdhava parlokam parlokartham ya. So ma and ja here together will become Chandrabindu and Liya.
Hmm. Samyak.
And Kuryat, and then Yatna Ma Kuryat. So that will become Ka, Ma and Ka will together will have that Na and Ka. So Yantarang Kuryat.
Yatnang Kuryat.
Yes.
Tat
Labdhava. Tat Labdhava. So that will also will be a sandhi. So yes. So that will be Tal Labdhava. So double.
Tal Labdhava. Uttamam. Samyage ho uchyate.
Yeah. Thank you. Thank you. I was not very confident because I'm scared to talk in front of everybody. So thank you.
Everybody is learning. So no issues at all. Vargah sarvepi adhyayanam kurvanti chinta eva nasti. No problem if you make any mistakes. So durlabham manusham. So makarasya anuswaraha punaha makaraha manushan janma. So anuswaraha nyakaraha manushan janma tat labdhva gatavarge adhitam tal labdhva sakarasya lakaraha bhavati parasavaranaha Talabdhva paralokarthanyatnam makarasya yakaraha. So anunasikaha yakaraha bhavati. Yatnam kuryat kakare pare anuswaraha yakaraha yatnam kuryat. So durlabham manushan janma prarthyate tridashairapi talabdhva paralokarthanyatnam kuryat vichakshanaha. So durlabham manusham janma manushya rupena janma prapti atyantam kashtene bhavati tridashairapi prarthyate tridashaha nama devaha. So devaihi api manushya rupena janma prapthyate kimartham manushyam manushyasyeva mokshaha iti asti pratiti. So tallabdhva tattu nama tadrisham manusham janma labdhva prapya vichakshanaha nama buddhiman paralokartham yatnam kuryat na kevalam atra jivanartham yadyat kartavyam tadeva iti na iha para ihartham parartham api prayatnam kuryat dharmaha mokshaha ityadishu api prayatnaha vidheyaha ityarthaha. Durlabham manushan janma prarthyate tridashairapi tallabdhva paralokarthai yatnam kuryad vichakshanaha. Grehachamaha parasavarna santhihi pashtaha iti bhavayami. Agrimaha santhihi charpa santhihi. Kanichana udaharanani adavu pashyamaha. Ramayanam anushtup chandasa rachita masti. Tatra anushtub chandasa. So tatra anushtub chandasa iti bakarasya sthane pakaraha asti. Anushtub chandasa iti asmat patram bhavata praptam nanu. So asmakam patram praptam va iti prashnaha. Tatra अस्मद् पत्रम् इति स्थिते दकारस्य तकारः भवति, अस्मत् पत्रम् इति भवति. एतादृक् कर्म किमर्थं कृतम्? एतादृक् इत्युक्ते एतादृशम् इत्यर्थः. एतादृशं कार्यं किमर्थं कृतम्? सो तत्र एतादृग् कर्म, एतादृक् कर्म, गकारस्य ककारः. सो सर्वत्र पश्यन्तु प त क वर्गस्य प्रथमः वर्णः आदेशः भवति. सो सत्कीर्तिः सम्पादनीया सर्वैः. सो सत्कीर्तिः उत्तमं यशः इत्यर्थः. सो सद् कीर्तिः सत्कीर्तिः दकारस्य तकारः भवति. विपत्कालं कोऽपि न इच्छति. सो विपद् कालं विपत्कालं दकारस्य तकारः भवति. सो विपत्काल विपत्कालं कष्टस्य समयं, यत्र क्लेशाः भवन्ति तादृशं कालं कोऽपि न इच्छति. परिषत् कार्यं मया कृतम्. सो परिषद् कार्यं, तत्र दकारस्य तकारः, परिषत् कार्यं. सो परिषत् काचित् समितिः. सो तस्याः कार्यं मया कृतम् इति उच्यते. सो द शुड् इट् बी शोन् इन् द रिवर्स् इति पृच्छ्यते. मया आदौ अत्र यदस्ति तत् प्रदर्श्यते, अनन्तरं तस्य छेदः. सो ऐ एम् स्प्लिटिङ्ग् द सन्धि, नाट् जायिनिङ्ग् इट्. सो सद् प्लस् कीर्तिः बिकम्स् सत्कीर्तिः. सो सत्कीर्तिः इत्यस्य छेदः सद् कीर्तिः. सो आदौ दकारः आसीत्, तस्य पकारः. मया सर्वत्र तथैव प्रदर्शितमस्ति. सो अयं चर्त्रसन्धिः इति उच्यते. चर्त्रसन्धिः नाम कः? कः नियमः इति चेत्, जश् वर्गस्य तृतीयवर्णः भवति, ग ज ड द ब, तस्य स्थाने कर्कषव्यञ्जने परे, when these letters are followed by a karkashavyanjana. Karkashavyanjanam nama vargasya prathamaha athava dvitiyaha varnaha, sha sha sa, etani karkashavyanjanani iti uchyante. Kakha chatha tatha tatha patha, vargasya prathama dvitiya varnau, sha sha sa, etani karkashavyanjanani. एतेषु परेषु वर्गतृतीयस्य वर्गप्रथमः आदेशः भवति. क च ट त प, वस्तुतः एते वर्णाः द क च ट त प, एतेषां वर्णानां व्याकरणे चर् इति नाम. यथा स्वराणाम् अच् इति वदामः, व्यञ्जनानां हल् इति वदामः, एवं च ट त क प एतेषां वर्णानां तथा शशस् अस्ति, तेषां चर् इति नाम भवति. सो चर्त्वसन्धिः, यत्र वर्गस्य प्रथमः वर्णः आदेशः भवति, सः चर्त्वसन्धिः. ओके, सो इट् लैक् अ रिवर्स् आफ् जष्ट्व. जष्ट्वसन्धौ वर्गस्य तृतीयः आदेशः भवति. सो दीस् आर् द आदेश इन् जष्ट्व सन्धि. चर्त्वसन्धौ तु वर्गस्य प्रथमः आदेशः भवति. कानिचन उदाहरणानि पश्यामः. सो दिग् पालः अस्ति, गकारः अस्ति, पकारः कर्कषव्यञ्जनम्. सो गकारस्य स्थाने ककारः आदेशः भवति, दिक्पालः इति भवति. एवं विराड् पुरुषः इत्यस्ति, डकारः. सो डकारस्य स्थाने टकारः, टवर्गस्य प्रथमः वर्णः टकारः आदेशः भवति, विराट् पुरुषः इति भवति. सो अत्र अभ्यासं कुर्मः. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. अविनाश वैद्य
ऋत्विग् प्लस कुत्र गकार विल चेंज टू ककार. सो ऋत्विग्
ऋत्विक्
कुत्र दैट सेकंड वन
ऋत्विक् करेक्ट ऋत्विक् कुत्र
सम्यक् कुत्र सेकंड वन अस्मद् कुत्र तकार विल चेंज टू तकार. तो इट इज अस्मत् पुत्र दैट फर्स्ट वन
फर्स्ट सम्यक् धन्यवाद राइट अस्मत् पुत्रः उत्तमं विजयराघवन् महोदय.
विपत् प्लस् प्रतिकारः विपत् प्रतिकारः चतुर्थं
चतुर्थं सम्यक् विपत् प्रतिकारः
खाद्यानि द्वितीयम्
उत्तमं धन्यवादः. षट् खाद्यानि ललिता सिंह
यस् सो द विल चेंज टू द इट विल बी द सेकेण्ड् वन् उत्पत्ति
द्वितीयं
तुला षाड् सर्वः द विल् चेञ्ज् शुक्त तुला षाट् द फस्ट् वन् तुरा षाट् सर्वः
सम्यक् तुरा षाट् सर्वः महालक्ष्मी
नमस्ते. सम्पत् कुमारः तृतीयं
सम्पत् कुमारः
सात्वक् कर्म फोर्थ् वन्
तादृक् कर्म सम्यक् निर्मला राजशेखर to unmute yourself.
Namaste. Sampat karanam. It will pick up sampat karanam.
Tritiyam. Uttamam.
Parivrat plus sangaha. Parivrat sangaha will be the first one.
Samyak. Nanyadah. उत्तमम् सो अग्रिमं सन्धेः विभजनं कर्तव्यं पद्मनाभन्
जगत्कर्ता बिकम्स् द्वितीयरूपं जगत् प्लस् कर्ता
जगद् कर्ता
महत्तमः बिकम्स् महत् प्लस् तमः महत् well it has to be only the first one महत्तमः
the options are actually not correct because only the first one has tamaha mahad tamaha
Swaminathan.
Mahat. Yes. Can you hear me?
Ah. Mahat
Mahatalpam becomes Mahat plus Talpam.
Prathamam.
Vak Prayogaha. Vaham Vag plus Prayoga. Dhritiyam.
Samyak. Dhanyavadaha. Vag Prayogaha. Ramakrishna Rao.
Ritvig. Or Shwe. Second one.
Ritvig Parshwe.
Saritatra. Saritatra. Sarid plus a third one.
Samyak. Sarid tatra. Uttamam. Dhanyavadaha. Shobha. Ready? You have to unmute yourself. Shobha.
Namaste. Namaste. Etat Parshvam. Etad plus Parshvam Pratamam. Kama Dukkhadati. Kamadug Khadati. Tritiyam.
Kamadug Khadati. Samyak. Uttamam. Sulochana. You have to unmute.
Kukutstha. Plus thaha. First one.
Kukutstha.
Kukut plus thaha. First one.
Ta asti. Takarasya takaraha bhavati va.
Last one.
Kakud staha antimam.
Then katta.
Rat karta.
Katta. Chaturtham.
Rad karta. Rat karta. Samyak. Dhanyavadaha. Usha.
Suprabhadam. Shriyateva.
Sah
pratidinam bhagavat pujam karoti. Bhagavad. Dritiya vikal. Bhagavad pujam.
Pujam. Bhagavat pujam. Samyak.
Vrikshe shat palani. Vrikshe shada prathama. Shada palani.
Shat palani. Samyak. Dhanyavadaha. Rao.
Gunavad Purushaha. Gunavad Dakara and Purushaha.
Gunavad Purushaha.
Next. Parvatat Sarit Prahavate. Sarid Prahavate number 2.
Sarid Pravahati, Sarid Pravahati. Dhanyavadaha. Vijayashri.
That's the one, no?
Yes.
Vishag Krishnaya. Vishag, the first one.
Krishnaya.
Yeah.
Agresh.
Sampad. Sampad. This is the last one. Yeah.
Similarly?
Apad. Apad. Yeah.
Apad. So, Samyak.
So, yeah. Then,
So, Saha Pratidinam Bhagavat Pujam Karoti. So, Bhagavataha Pujam Karoti. Ityarthaha. Vrikshe Shat Phalani Santi Gunavat Purushaha. Yasya Purushasya Gunaha Santi Saha Gunavan. Gunavat Purushaha Pujyaha Bhavati. Parvatat sarit pravahati. Sarit ityukte nadi ityarthah. So nadi pravahati. Bhishak krishnaya ushadham dadati. Bhishak vaidyah ityarthah. So vaidyah ushadham dadati. Sampatthu mahatam chittam bhaved utpala komalam. Apatthu cha mahashaila shila sanghata karkasham. So sampatthu mahatam chittam. Ye uttamaha purushaha tesham manaha. Sampatsu, yada sarvam samyagasti, sampattihi asti, tada utpala komalam bhave, utpalam pushpam. So pushpavat bahu mridu bhavati. Kintu apatsu yada kashtakalam bhavati, tada maha shaida shila sanghata karkasham. Atyantam kathinam bhavati, kashtam sodhum kathinyam bhavati. Katham maha shaila, mahataha parvatasya shila sanghataha. Shila samuha iva karkasham atyantam kathinam bhavati iti niti shatakar shlokaha. Madhye kaschit prashnaha asit turashat iti kutra chidagatam. Turashat indraha. Indro marutvan maghava vidaujah pakashasanaha ityadishu turashan meghavahanaha. So turashat ityukte indraha. So chartrasandhihi sarvaihi avagataha iti bhavayami vargasya tritiya varnasya sthane prathama varnah adeshaha bhavati. Kepi prashnaha santiva sandhehe vishaye. Nasti agre gachhamaha. Bhagavad Gita yaha agrimashnutah tam samikshya sakaunteyah sarvan bandhun avasthitan kripaya paraya vishtu ushidan nidam abravit evaktum ichanti sattamunayantu. Sulochana.
Namaste. Apadachedaha. Tan. Samichya. Kaha. Aundeyaha. Sarvam. Sul. Namastidam. Kribaya. Haraya. Avishtaha. Vishidan. Idam. Abravidhi. Vishidan nidam. Sandhi, I don't know. Is it
Adhima Varge Pathamaha Namudagama Sandhi Iti Uchyate. Vishidan nidam. Vishidan nidam. So Nakarasya Agamaha Asti. So Namudagama Sandhi Iti Uchyate.
Okay. Paraya Vishta aha Savarna Dirkasandhi.
Same. Paraya Avishtaha Paraya Vishtaha Savarna Dirkasandhi.
Vakya Vishnam Kriya Badam Vivitam. Prathama Vibhakti Saha Kaundeyaha Paraya Vishtaha Ditiya Sakti Man Sarvan
Ityasti. Prathama Vibhakti Vishidan.
Ditiya Sakti Tan Sarvan Benthun Avastidan. Tritiya Sakti Kripaya Paraya. Okay.
Idam Ityapi Tritiya Vibhakti Shanyatam. So that's Idam Abravita. Idam Ityapi Dritiya.
Ditiya Sakti Idam. Then Anne Rajana Saha Abravit Saha Abravit Saha Kaha Saha Kaundeyaha Kidrishaha Kaundeyaha Paraya Avishtaha Kaundeyaha
Avishtaha Kaundeyaha
Kaya Avishtaha Paraya Avishtaha
Kripaya Avishtaha.
Kripaya Avishtaha. पुनः कीदृशः कौन्देयः समीक्ष्य कौन्देयः तान् समीक्ष्य
किं कृत्वा इति वक्तव्यम् किं कृत्वा अब्रवीत्
समीक्ष्य कौन्देयः तान् समीक्ष्य तान् बन्धून् कीदृशान् बन्धून् अवस्थितान् बन्धून् कथम् अब्रवीत् विशीदन् अब्रवीत् इस् दट् रैट्
तथमपि कर्तुं शक्यते अथवा अब्रवीत् कीदृशः कौन्तेयः विशीदन् विशीदन् इति वस्तुतः एतत् किन्तु किं कुर्वन् कथम् अब्रवीत् इत्यपि वक्तुं शक्यते क्लेशः न उभयथापि अर्थः तु समानः
अब्रवीत् इदम् अब्रवीत्
प्रश्नः किमासीत् इदम् इत्यस्य कः प्रश्नः उक्तः
किम् अब्रवीत् इदम् अब्रवीत् इदम् अब्रवीत् अन्ययः कृपया परया आविष्टः सः कौन्देयः तान् सर्वान् अवस्थितान् बन्धून् समीक्ष्य विशीद इदम् अब्रवीत्
उत्तमम्
पदपदार्थः सः अर्जुनः तान् गौरवान् अवस्थितान् स्थितान् सम्मिलितान् सर्वजनान् बन्धून् स्वजनान् बान्धवान् समीक्ष्य अवलोक्य कौन्तेयः अर्जुनः कृपया करुणया परया अतिकया आविष्ट व्याप्तः कीदन् दुःखितन्
दुःखितः सन्
अब्रवीद् अवदत्
अवदत् उत्तमम्
तात्पर्यम् अर्जुनः अत्र सम्मिलितान् सर्वान् भवान् दृष्ट्वा करुणया विष्टः सः अत्यन्तं विषादन् इदं वाक्यम् अवदत्
अत्यन्तं दुःखितः सन् इदं वाक्यम् अवदत् उत्तमम् सम्यक्
सः दकारान्तः पुल्लिङ्गः प्रथम एकवचनं सर्वनामम् मान् दकारान्तः पुल्लिङ्ग द्वितीय बहुवचनम् अवस्थान् अकारान्तः पुल्लिङ्गः द्वितीय बहुवचनम् सर्वान् अकारान्तः पुल्लिङ्गः द्वितीय बहुवचनम् सर्वनाम उकारान्तः पुल्लिङ्गः द्वितीय बहुवचनम् समीक्ष्यबन्ताव्ययम् कौन्तेयः अकारान्तः पुल्लिङ्गः प्रथम एकवचनम् कृपया आकारान्तः स्त्रीलिङ्गः तृतीय एकवचनम् परया आकारान्तः स्त्रीलिङ्गः तृतीय एकवचनम् आविष्टः अकारान्तः पुल्लिङ्गः प्रथम एकवचनम् शत्रु प्रत्ययम्
पकारान्तः पुल्लिङ्गः प्रथमा विभक्तिः एकवचनम् विशीदन् विशीदन्तौ विशीदन्तः यथा कुर्वन् कुर्वन्तौ कुर्वन्तः पठन् पठन्तौ पठन्तः एवं विशीदन् तकारान्तः पुल्लिङ्गः प्रथमा विभक्तौ एकवचनम् शत्रुप्रत्ययान्तः सत्यम्
idam makarandaha napumsakalinga sarvanamam. Vidya ekvachana. Abravid dhatuhu parasmaipadi leng lakaraha prathama purusha ekvachanam.
Kaha dhatuhu?
Abravid parasmaipadi leng lakaraha kartari.
Kaha dhatuhu kaha? Bru dhatuhu.
Bru dhatuhu.
Parasmaipadi ubhayapadi vastutah saha ubhayapadi idam parasmaipada rupam laka lang lakare prathama purushe ekavachanam
sambhrutam.
So saha kaunteyah, so sa kaunteyah atra visarga sandhi asti. Saha kaunteyah, kaunteyah kuntyah putrah kaunteyah arjunah sarvan bandhun avasthithan samikshya. So yuddharange sammilitan sakalan bandhavan avalokya paraya kripaya avishtah. So paraya, para is atyantam adhika, para kripa, so atyadhika karunaya kripaya avishtah vyaptah vishidan dukkhitah san khidyamanah idam abravit. So etat vakyam uktavan avadat ityarthah. Kepi prashnah santi va shloke sarvam spashtam iti bhavayami. So avishtah vyaptah paraya iti akaranta strilingaha. So para atyadhika istyaha vishidan. So vi upasargaha sad dhatuhu shatr pratyayantaha takarantaha pullingaha. So tan sarvan bandhun avasthitan. So tan ityasya sarvan bandhun ityanena anvayaha. So tan tatra sthitan. So them. अन्य केपि प्रश्नाः सन्ति वा अस्य श्लोकस्य विषये? अग्रे गच्छामः. दृष्ट्वेमं स्वजनं कृष्ण युत्सुंसमुपस्थितं सीदन्ति मम गात्राणि मुखं च परिशुष्यति. एकः प्रश्नः विशीदन् इत्यस्य पर्यायः तदेव दुःखितः सन् इति वक्तुं शक्यते अथवा खिद्यमानः इति वक्तुं शक्यते. अस्य श्लोकस्य ये वक्तुमिच्छन्ति कृपया समुन्नयन्तु. राम
धन्यवाद. दृष्ट्वा इमं स्वजनं कृष्ण युयुत्सुं समुपस्थितं सीदन्ति मम गात्राणि मुखं च परिशुष्यति. दृष्ट्वा प्लस इमं दृष्ट्वेमं गुणसन्धिः. इमं स्वजनं युयुत्सुं मुखं दे आल् अनुस्वारसन्धिः. एण्ड् देर् इस् नो अदर् सन्धि देर् रैट्. ओके. एण्ड् सामान्यार्थः हे मधुसूदन युद्धं कर्तुं स्थितं एनं स्वजनम् अवलोक्य मे देहस्य अवयवाः अवसीदन्ति. मुखस्य शोषणम् अपि भवति. वाक्यविश्लेषणं क्रियापदं सीदन्ति परिशुष्यति प्रथमा विभक्तिः gatrani mukham sambodhana prathama krishna dvitiya vibhakti imam svajanam yuyatsum samupastitam sashti mama avyayam drishtva ancha
samet
akaran akanksha kramena anvayah sidanti kani sidanti gatrani sidanti kasya gatrani mama gatrani sidanti kim kritva sidanti drishtva kam drishtva imam drishtva kidrisham imam svajanam yuyutsum samupastitam and parisushyati kim parisushyati mukham parisushyati so anvayah he krishna mama gatrani yuyutsum samupastitam svajanam drishtva sidanti mukham cha parisushyati vyakranam chah drishtva its avyayam imam makarantah pullingah idam shabdah dvitiya ekavachanam svajanam akaranta pullinga dvitiya ekavachanam krishna akaranta pullinga prathama sambodhanam ekavachanam yuyutsum ukaranta pullingah dvitiya ekavachanam samupastitam akaranta pullinga dvitiya ekavachanam sidhanti sad dhatukul parasmai padam latlakarah prathama purusha bahu prathama purushah
bahuvachanam
mama asmat shabdah dakarantah trisur lingeshu samanah sashti ekavachanam gatrani akaranta napumsaka lingah prathama vibhakti bahuvachanam mukham akarantah napumsaka lingah prathama vibhakti ekavachanam parisushyati pari is upasarga plus sushyati lat lakarah prathama purushah ekavachanam and parasmai padam cha avyayam sushyati what is dhatu I didn't write it down
shush dhatu
shush okay thank you
shush dhatu
okay thank you
samyak uttam samyak uttam So, hey Krishna, it is Sambodhanam. So, imam swajanam yuyutsu. So, yuyutsu iti san yodhum iccha yuyutsa yatha bhoktum iccha bubhuksha patum iccha pipasa ityadi bhavati sannantah iti uchyate evam yodhum iccha yuyutsa सो यहा योद्धुम इच्छति सह युयुत्सुः एतत् स्वर्तव्यं युयुत्सुः इति कश्चित् महाभारतेव अस्ति धृतराष्ट्रस्य पुत्रः युयुत्सुः तस्य नाम युयुत्सुः किन्तु अत्र युयुत्सुः नाम स्वजनं युयुत्सुं समुपस्थितम् सो युद्धं कर्तुम् इच्छया समुपस्थितम् समाविष्टं स्वजनम् सो एकवचनम् अस्ति वस्तुतः सर्वे बान्धवाः समूहार्थे एकवचनम् उपयुज्यते सो युद्धं कर्तुम् इच्छया समुपस्थितान् सर्वान् बान्धवान् वीक्ष्य इत्यर्थः किं भवति मम गात्राणि सीदन्ति मम अर्जुनस्य गात्राणि गात्रम् अङ्गम् अवयवः सो अङ्गानि अथवा अवयवाः सीदन्ति दुर्बलाः भवन्ति सो दे वीकन् सो अङ्गेषु शक्तिः नास्ति सो अंगानि दुर्बलानि भवन्ति मुखं च मम वदनं मुखं आननं च परिशुष्यति शुष्कं भवति सो द माउथ ड्राइज अप इत्यर्थः अन्यत् सर्वं उक्तम् इति भावयामि अत्र स्वजनान् इत्यपि उपयोक्तुं शक्यते वा शक्यते स्वजनान् स्वजनः स्वजनाः उभयम् उपयोक्तुं शक्यते सो इफ् यु आर् रेफरिङ्ग् टु देम् एस् अ ग्रूप् स्वजनं यदि पृथक् पृथक् सर्व उच्यन्ते स्वजनाः उभयं शक्यते उपयोक्तुं सो गात्राणि इत्यस्य व्याकरणांशः गात्र अकारान्तः नपुंसकलिङ्गः प्रथमाविभक्तौ बहुवचनम् युयुत्सुम् इति अव्ययं न वा इति अव्ययं न युयुत्सुः इति उकारान्तः पुल्लिङ्गः युयुत्सुः युयुत्सु युयुत्सवः पूर्वतनश्लोके प्रियचिकीर्षवः इति दृष्टं किल सो तत्रापि चिकीर्षुः कर्तुम् इच्छा यस्य अस्ति सः चिकीर्षुः सो प्रियचिकीर्षवः इति प्रथमा बहुवचनम् अत्र द्वितीया एकवचनं युयुत्सुम् इति स्वजनम् इत्यस्य विशेषणं सो शुष्यति इत्यत्र कः लकारः लट्लकारः सः चतुर्थगणस्य धातुः नृत् नृत्यति एवं शुष्यति लट्लकारः एव शुष्यति शुष्कं भवति इत्यर्थः ड्रैस् अप् तस्य भविष्यत्काले किं भवति इति प्रश्नः धातुः सेट् चेत् शोषिष्यति इति भवति शुष्यति शोषिष्यति सो परिशुष्यति इत्यत्र परि इत्यस्य कः अर्थः परि सामान्यतः सर्वत्र इत्युक्ते पूर्णतः शुष्यति इत्यर्थः भवितुमर्हति अन्ये प्रश्नाः सन्ति वा सो अग्रिमं श्लोकं पश्यामः निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयो न पश्यामि हत्वा स्वजनमाहवे ज्योति वदति वा
Sorry, ma'am. Sorry, Bhagini. You don't have answer for this question.
No, no.
I raised the hand for the previous one.
Oh, sorry. No problem. Anish? Avinash Vaidya?
Namaste, Maudya. This Padacheda Nimittani Cha Paschami विपरीतानि केशव न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आहवे पदच्छेद सन्धि श्रेयः अनुपश्यामि दट् इस् श्रेयो ऐ डोण्ट् नो द नेम् आफ् सन्धि बट् देर् इस् सन्धि देयर् विसर्गसन्धि ओके Then hatva swajanam ahave. There is no sandhi I think here. Swajanam ahave just joining the
satyam.
There is no sandhi.
No sandhi.
Okay. Okay. Then vakya vishleshanam kriyapada paschami anupaschami. There are two kriyapadas. Then prathama aham means there is adhyarup aham and sreya.
श्रेयः द्वितीया
Trehel Dutiya. Okay, sorry, I don't know what this is. Because I thought it is Visarga, which is maybe Prathama.
Hmm.
Sambhojana Prathama is Keshava.
Hmm.
Dutiya Nimittani Ipiritani Svajanam.
Shreyaha. Hmm.
And Shreya also, okay, now. Then Saptami Ahave.
Hmm.
Avvayaha Hatva Cha Na.
Hmm.
Now Pashyami. Kana Pashyami. Nimittani Pashyami.
Hmm.
Kridushani Nimittani. Utiritani.
Hmm.
Second, Na Anupashyami.
Hmm.
Kam Na Anupashyami Shreyasya.
Hmm.
Hatva. Kim Hatva Svajanam.
Hmm.
Chasmin Hatva Ahave.
Hmm.
So this way, so Anway is He Keshava.
Hmm.
Aham Nimittani Cha Viparitani Pashyami.
Hmm.
First sentence. Second says Hatva Svajanam Ahave. Aham Shreyas Na Anupashyami.
Ahave Svajanam Hatva Shreyas.
Ahave.
Hmm.
Ahave Svajanam Hatva. Hmm. Aham Shreyas Na Pashyami. Anupashyami. Anupashyami. This is what. So, Vyakranamsha Keshava అకారాంత పుల్లింగ సంబోధన ప్రథమ ఏకవచనం సంబోధన ప్రథమ ఏకవచనం నిమిత్తాని అకారాంత నపుసక లింగ ద్వితీయ బహువచన విపరీతాని అకారాంత నపుసక లింగ ద్వితీయ బహువచన శ్రేయ సకారాంత Napusaka Lingha.
Mm.
Now it has become Dutiya. So Dutiya Ekavachana.
Mm.
Svajanam Akarantha Napusaka Lingha Dutiya Ekavachanam.
Pullinga. Svajana.
Svajanam Pullinga. Okay, sorry. I have put it Napusaka Lingha wrong. Hatva. It is Avyam.
Mm.
Kwantapatya. Ahave Akarantha. Saptami ekavachanam.
Pullinga. Ahavaha. Nama yuddha.
Ahava. Pullinga. Okay. I also not knowing the linga of this. That's why I don't read.
Ahava.
Okay. Cha is avyam. Pashyami. Drushdhatu. Parasmayapadi. Lat lakara. Uttam purusha. Ekavachanam. Anupashyami, Anu plus Drushadhatu, Parasmayapad, Lat Lakara, Uttam Purusha, Ekvachana.
Samyak. Uttama. So, He Keshava, He Krishna, Viparitani Nimittani Pashyami. So, Nimittam Nama Shakunam. Shakunani. Shakunam Suchakam. So, Shubha Suchakam, Athava Ashubha Suchakam. Atra viparitani nama pratikulani nimittani pratikulani shakunani pashyami pratikulam so bad omen so yatra agre uttamam na bhavati shubham na bhavati iti bhasate so pratikulani shakunani aham vikshe yatha shigalaha krandati ityadi santi shakunani yani ashubha suchakani shakunani Pashyami Punascha Shreyaha Na Anupashyami Shreyaha Abhivruddhim Na Pashyami Pashtat Kale Ekkipte Edam Kritva Kim Kritva Hatva Marayitva Kam Marayitva Svajanam Bandhavan Eva Kutra Ahave Ahave Yudhe Ityartha So Yudhe Asmadiyan sarvan marayitva agre bhavishyati abhivruddhim na pashyami. So सो भविष्यत् काले अस्माकम् अभिवृद्धिः कथं भवति इति न पश्यामि इति अर्जुनः वदति. तत्र श्रेयः मनस् शब्दवत् श्रेयस् सकारान्तः, श्रेयः श्रेयसि श्रेयांसि, श्रेयः श्रेयसि श्रेयांसि. सो द्वितीया विभक्तौ एकवचनं. आहवे नाम युद्धे इत्यर्थः. आहवः युद्धं, सङ्ग्रामः, समरः इत्यादि पर्यायपदानि. अन्ये प्रश्नाः सन्ति वा अस्य श्लोकस्य विषये? श्रेयशब्दः पुल्लिङ्गे अपि अस्ति वा इति प्रश्नः अस्ति. वस्तुतः श्रेयान् श्रेयांसौ श्रेयांसः इति अस्ति. वस्तुतः श्रेयशब्दः कम्पारिटिव् इति उच्यते. सो श्रेयान् श्रेयसी श्रेयः लिङ्गत्रये अपि अस्ति. उभयोः मध्ये दट् विच् इस् बेटर् मोर् फेवरबल् इत्यर्थे उपयुज्यते. सो यदा तथा उपयुज्यते, यथा उभयोः एषः श्रेयान् इति वक्तुं शक्यते. एवं श्रेयसि श्रेयस् इति उपयोक्तुं शक्यते. किन्तु सामान्यतः यदा अभिवृद्धिः इत्यर्थे उपयुज्यते तदा नपुंसकलिङ्गे प्रयोगः भवति. अत्र तु नपुंसकलिङ्गः एव, यतोहि पुल्लिङ्गे श्रेयांसम् इति भवति, स्त्रीलिङ्गे श्रेयसीं, नपुंसकलिङ्गे श्रेयः. आहवे पुनः कृपया वदतु. आहवः नाम युद्धं, युद्धे इत्यर्थः. आहवे युद्धे, सो आहवः इत्यस्य युद्धम् इत्यर्थः. अन्ये प्रश्नाः सन्ति वा? अस्तु, अग्रे गच्छामः. अग्रिमवर्गे गीतायाः एतान् श्लोकान् पश्यामः. कृपया गृहे प्रयत्नं कुर्वन्तु. सो प्लीस् ट्रै, तदा एव ज्ञायते. वस्तुतः यदा शृणुमः सर्वं सम्यगेव इति भासते, किन्तु यदा अस्माभिः उपविश्य कर्तव्यं भवति तदा सन्देहाः उत्पद्यन्ते. वर्गे यदा चर्चा क्रियते तदा सन्देहस्य शमनं भवति. एतेषां श्लोकानाम् अन्वयरचनार्थं प्रयत्नं कुर्वन्तु. अग्रे कांश्चन विषयान् पश्यामः. अद्यतनप्रहेलिका अस्ति. राज्ञसम्बोधनं किं स्यात्? सुग्रीवस्य तु का प्रिया? अधनास्तु किमिच्छन्ति? आर्तैः किं क्रियते वद? वस्तुतः अत्र चत्वारः प्रश्नाः सन्ति. एकेन पदेन सर्वेषाम् अपि उत्तरं दातव्यम् इति नियमः. चत्वारः प्रश्नाः सन्ति. राज्ञः सम्बोधनं किं स्यात्? कथं क्रियते राज्ञः सम्बोधनम्? सुग्रीवस्य का प्रिया? सुग्रीवस्य प्रिया का? अधनाः किम् इच्छन्ति? आर्तैः, आर्ताः दुःखिताः, खिन्नाः, तैः किं क्रियते? एतत् सर्वमपि अस्ति. कथम् उत्तरं दातव्यम् इति चिन्तनीयम्. आदौ तृतीयं स्वीकुर्मः, तत् सुलभम्. अधनाः किम् इच्छन्ति? अत्यन्तं सरलम्. किमुत्तरम्? येषां समीपे धनं नास्ति ते किम् इच्छन्ति? धनम् इच्छन्ति, सत्यमेव. सो धनम् इति तस्य उत्तरम्. अधनाः किम् इच्छन्ति? सुग्रीवस्य का प्रिया? सुग्रीवस्य प्रिया का? तारा, सत्यम्. वस्तुतः तस्य पत्नी रुमा आसीत्, किन्तु वालिनः मरणानन्तरं तारा एव तं परिणीते तारां परिणीते अतः तारा राज्ञः सम्बोधनं किं स्यात् किञ्चित् क्लिष्टं बहुधा सम्बोधनं कर्तुं शक्यते स्वराजन् इत्यादि अत्र एनि गेसेस् सामान्यतः नाटकेषु यदा क्रियते तत्र किं सम्बोधनम् उपयुज्यते राजन् इत्येकम् अस्ति किन्तु राजन् इति पदं न अन्यत् पदम् प्रभो इत्यस्ति सत्यम् अन्यत् किमपि अकारान्तः शब्दः तस्य सम्बोधनम् देव सम्यक् केनचित् ऊहः कृतः देव इति सम्बोधनं क्रियते स्वामिन् प्रभो देव सर्वमपि क्रियते अतः सामान्यतः ऊहः कष्टः एव किन्तु एतदस्ति देव तारा धनम् आर्तैः किं क्रियते दुःखिताः किं कुर्वन्ति अस्य उत्तरं कुत्र अस्ति रोदनं कुर्वन्ति सत्यं तत्तु कुर्वन्ति किन्तु तत्र दुःखात् विमुक्तिं प्राप्तुं किं कुर्वन्ति अत्रैव अस्ति उत्तरम् अत्रैव अस्ति आराधनं कस्य आराधनम् देव आराधनं देवताराधनं देवतायाः आराधनं कुर्वन्ति सो त्रयमपि मेलयामः चेत् देवताराधनं देवतायाः आराधनं देवपूजां कुर्वन्ति इति उत्तरम् सो देवताराधनं देवताराधनम् इत्यत्र सर्वेषां प्रश्नानाम् उत्तरम् अस्ति सो राज्ञः सम्बोधनं किं देव सुग्रीवस्य प्रिया का तारा अधनाः किमिच्छन्ति धनम् आर्तैः किं क्रियते देवताराधनं क्रियते इति सहेलिका इतोपि एकं समानरीत्या अस्ति वेरि सिमिलर् वन् सो प्रश्नाः भवन्ति पूजायां किं पदं प्रोक्तं किं वा पुरुषवाचकं कः आयुधतया ख्यातः प्रलम्बासुरविद्विषः अत्र त्रयः एव प्रश्नाः सन्ति वस्तुतः सो पूजायां पूजा इत्युक्ते पूजा गौरव दाने सम्मानने इत्यतः तस्यापि प्रशंसा क्रियते चेत् तत्र किं पदम् उपयुज्यते इति प्रश्नः किं वा पुरुषवाचकम् पुरुषः इत्यस्मिन् अर्थे किं पदम् उपयुज्यते प्रलम्बासुरविद्विषः प्रलम्बासुरस्य शत्रुः कः प्रलम्बासुरस्य शत्रुः ज्ञायते वा प्रलम्बासुर भागवते अस्ति प्रलम्बासुरस्य वधः केन कृतः कृष्णः न कृष्णेन न कृतम् प्रलम्बासुरः कृष्णस्य अग्रजः बलरामः बलरामस्य प्रलम्बघ्नः इत्यपि नामधेयमस्ति सो बलरामः कृतवान् सरि प्रलम्बासुरविद्विषः नाम बलरामस्य आयुधतया कः ख्यातः बलरामस्य आयुधं किम् इति त्रयः प्रश्नाः सो उत्तरत्रयं भवति तत् मिलित्वा अपि एकं पदं भवति एकम् अर्थपूर्णं पदं भवति किञ्चित् क्लिष्टमेव आदौ पूजायाम् एतत्तु उत्तरं सरलं यदा किमपि उत्तमं सम्यक् इति वक्तुं किं पदम् उपयुज्यते पदम् इट्स् अ सिङ्गल् लेटर् एज़् इन् एकमेव अक्षरं भवति पूजायां किं पदं प्रोक्तं सर्वत्र विशेषणरूपेण यथा वदामि चेत् उत्तरं लभ्यते सम्यक् भाषितं सम्यक् उक्तिः इत्यादिषु उपसर्गः वस्तुतः सः उपसर्गत्वेन प्रयुक्तः सुभाषितं सूक्तिः इत्यादिषु पूजायां किं पदं प्रोक्तम् इत्यस्य सु इति उत्तरं पुरुषवाचकं पुरुषः इत्यर्थे अत्रापि एकमेव अक्षरं भवति नरः इत्यस्य पर्याय नः इत्युक्ते ना नृ शब्दः नृ शब्दस्य प्रथमाविभक्तौ एकवचने ना इति भवति ना नरौ नरः ना इत्युक्ते पुरुषः इत्यर्थः सु ना बलरामस्य आयुधं बलरामस्य आयुधं किम् गदा न गदायुद्धे सः परिणतः किन्तु तस्य आयुधं हलं हलायुधः इत्येव प्रसिद्धः हलशब्दस्य पर्यायः कश्चिदस्ति वस्तुतः हलशब्दः एव प्रसिद्धः किन्तु सीरः इति एकं पदमस्ति सीरपाणिः इत्यपि उच्यते हलायुधः सीरपाणिः इति बलरामस्य पर्यायपदानि सुसीरः सुनासीरः इत्यस्ति सुनासीरः इत्युक्ते इन्द्रः इत्यर्थः वृद्धश्रवा सुनासीरः पुरुहूतः पुरन्दरः सो त्रयाणामपि प्रश्नानाम् उत्तरम् एकेन पदेन सुनासीरः इति पदं तत्र त्रयाणां प्रश्नानां पृथक् पृथक् उत्तरं विद्यते पूजायां सु पुरुषवाचकं न बलरामस्य आयुधं सीरः अथवा हलः सहेलिकाद्वयं दृष्टम् न्यायम् अग्रिम वर्गे पश्यामः सो अद्य सन्धिः सारि ऐ थिङ्क् ऐ डिड्न्ट् मेक् दट् स्लैड् सो अद्य चर्त्वसन्धिः अधीतः तथा भगवद्गीतायाः केचन श्लोकाः दृष्टाः प्रहेलिकाद्वयम् अपि दृष्टम् सारि द नेक्स्ट् क्लास् इस् आन् 11th आगस्ट् मया I didn't change the last few slides. So, Agrima Havardaha, Agrima Srinivasare Parishati. So, we'll stop here. Prashnaha Sanchichet, Prichantu, Mangalam Karomi, Ye Prathatu Michanti, Te Gantu Marahanti, Prashnaha Sanchichet, Prichantu. Gurureva Gatir Gurumeva Bhaje Gurunaiva Sahasminamo Gurave न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्मि गुरौ मम पाहि गुरो चर्त्वसन्धेः चर्त्वम् इति किमर्थम् उच्यते इति प्रश्नः सो व्याकरणे चर् इति कश्चित् प्रत्याहारः अस्ति सो चर् इति प्रत्याहारः सो प्रत्याहारस्य चटत कप वर्गस्य प्रथमवर्णाः तथा शर्षस इत्यर्थः सो वर्गस्य प्रथमवर्णाः आदेशाः इति सन्ति इत्यतः चर्त्वसन्धिः यथा जष्टसन्धिः इत्युक्ते जश् जबगडद ते आदेशाः भवन्ति एवं चर्त्वसन्धौ चर् वर्णाः आदेशाः भवन्ति अग्रिमवर्गस्य गीताश्लोकान् दर्शयतु इति अत्र अस्ति एते श्लोकाः नकाङ्क्षे विजयं कृष्ण येषामर्थे काङ्क्षितं नो एतान् न अन्ये केऽपि प्रश्नाः सन्ति वा यु केन् रेज़् युर् हेण्ड्स् ऐ लोवर् एव्रिबडीस् हेण्ड्स् प्लीज़् रेज़् युर् हेण्ड्स् इफ् यु हेव् अ क्वश्चन् महेश्वरी
इदानीं प्रश्नः नास्ति भगिनि अच् पूर्वम् अहं लिखितवती अच् इत्युक्ते स्वराक्षराणि अत्र वा इत्युक्ते किं प्रहेलिका अद्य आसीत् किं वा पुरुषवाचकं
केवलं अर्थः नास्ति तत्र केवलं पादपूरणार्थम् उपयुज्य किं पुरुषवाचकम् इत्येव अर्थः
अस्तु धन्यवादः भगिनि
पश्यामि अनुपश्यामि डिफरेन्स् वाट् इस् द डिफरेन्स्
सूक्ष्मः भेदः अस्ति वस्तुतः दृशधातुः अनुपश्यामि इत्युक्ते अनु अनन्तरं सो अनन्तरकाले श्रेयः न पश्यामि इट् इस् लैक् फोर्सीङ्ग् ऐ डु नाट् फोर्सी एनी श्रेयः सो निमित्तानि पश्यामि इत्युक्ते साक्षात् निमित्तानां दर्शनं भवति अत्र तु अनुपश्यामि इत्युक्ते अग्रे भविष्यति श्रेयः न पश्यामि इत्यर्थः
थैंक यू
I have a general question. The chutva sandhi, jatva sandhi and chatva sandhi, where is that? I mean, charaha, I know that's a pratyahara, kapha chadata chadata, kapha chadata, I know that. But how the swa is coming, I'm sort of curious. Chatva, sutva.
Just a pratyaya, charaha bhavaha. So where char is given, char is vidhana is there, that is chatva. So that's a very common term in
okay.
So putvam is being done.
Okay. Shutvam, jastvam and chatvam. So that is called that makara is dropped and it's called chatvasandhi, shutvasandhi and jastvasandhi, right?
Right.
Okay, thank you.
तत्र बन्धूनमस्थितान् इत्यत्र सन्धिः नास्ति वा इति प्रश्नः नास्ति तत्र वर्णविकारः नास्ति किल बन्धून् अवस्थितान् सो वि आर् जस्ट् जायिनिङ्ग् द लेटर्स् टु गेट् द नर्व् सो सन्धिः नास्ति बन्धून् अवस्थितान् इत्यत्र सो अग्रे रामानुजन्
सो थैंक यू द टेबल् यु आर् गिवन् फार् परसवर्ण सन्धि डस् नाट् इन्क्लूड् दि अनुनासिकास् देयर् आर्
इट्स् अ मिस्टेक् इट्स् अ मिस्टेक् ऐ थिंक् ऐ हैव मेन्शन्ड् इट् इवन् इन् लास्ट् क्लास् इट् शुड् बी देयर् अनुनासिकास् आर् आल्सो इन्क्लूडेड्
Okay, probably I missed that when you said it in the class. Okay, and the second one on the exercise that we did today, the Vidyut Lekha, the Paracheda we did like Vidyut Lekha, that third becomes, does it become the third Da if you apply the Jashtva Sandhi?
Jashtva Sandhi, yeah, it is possible. Vidyut Lekha, Vidyut Lekha.
Okay.
There are problems with teaching sandhis this way because when we follow the Paninian Prakriya, always Jashtva will happen first. That is the first sandhi which will happen in any case. And then we do the other sandhis like Jashtva and Parasavarna and so on. Okay. So
when I write it, do I have to write with the third Da or should I write it with the first Da?
Either way will be accepted. At this level, both of them will be accepted.
Okay, yeah. Okay. So that is the same case with the Vidvat Lokaha.
Yes.
Okay, okay. Thank you. Oh, maybe I'll ask you one more question. I sent you the email. It is on the Tacham Yora Vrani Mahe.
I wanted to confirm it with my husband. He has studied the Veda, so I'll just confirm it and I'll get back to you.
Okay, okay. Yeah, thank you. Thank you so much.
Sundar Raman Mahajan.
Can you hear me?
Yeah, I can hear you.
Can you hear me? Yeah. In the second Pahalika.
No, Sunasiraha is not the answer for a question.
That is right. Yeah, that is what I was wondering, because it comes out, but it is not
correct.
Having any link with anything, you know?
Correct. Yes, yes.
I was a little because
somebody says it's a tricky thing. I mean, if you ask this question.